श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथैकत्रिंशोऽध्यायः। गोप्य ऊचुः जयति ते धिकैः जन्मना रजस् श्रयत इन्दिरा शशदत्र हि त्वयि धृतासवस् त्वाविचिन्वते शरदुदाशये साधुजात सत् सरसिजोदर सुरतनाथ ते शुल्कदासिका वरदनिघ्नतो नेह किंवधः विषजलाप्यया शसान् वर्षमारुतात् वैद्युतानलात् वृषमयात्मजान् विश्वतो भयात् दृशभते वयं रक्षिता न खलु गोपिका नन्दनो भवानखिल देहिना मन्त्रात्मधृक् विखन सार्थितो विश्वगुप्तये सख उदीयिवान् सात्रताङ्कुले विरचिताभयौ वृष्णिधुर्यते चरणमीयुषां संश्रुते करसरोरुहं कान्तकामदं शिरसि धेहिना श्रीकराग्रहम् व्रज जनार्तिहं निज जन स्मयत् ध्वंसनस्मित भज सखे भवत् किंकरी स्मनो जलरुहानदै प्रणत देहिना पापकर्षनं तृणचरानुगम श्रीनिकेतनम् फणिफणार्पितम् ते पदाम्बुजम् कृणु कुचेषु न कृन्दिरोच्छयम् मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करीक्षण विधि रधर सीधुना प्याययस्वनः तव कथामृतं ताप्त जीवनं कविभिरीडितं कल्मषापहम् श्रवणमङ्गलम् श्रीमदाततम् भुवि गृणन्ति ते भूरिदाजनाः प्रहसितम् ध्यानमङ्गलम् रहसि संविदो यारुदे स्पृश कुहतनो मन क्षोभयन्ति चलसि पशून् नलिन सुन्दरन् नाथ ते पदम् शीलतृणाङ्कुरै सीदतीति नाथ कलिलतामन दिन परीक्षये नीलकुन्तलै वनरुहाननम् बेभ्रदारुतम् घन मनसि न स्मरौ वीरयच्छसि प्रणतकामदं पद्मजार्चितं धरणिमण्डनम् चरण पंकजं शन्तमैचते रमण नस्तनीश वर्पयाधिहन् सुरत वर्धनम् शोकनाशनम् स्वरित वीणुना सुष्ठु चुंबितम् इतर राग दे स्मारणं नृणां वितर वीरनास ते अटति यद्भवा नह्निकाननं त्रुटिर्युगायते त्वाम पश्यतां कुटिलकुन्तलं श्रीमुखैचते जड उदीक्षतां पक्ष्मकृदृशां पतिसुतान्वया भ्रातृबान्धवान् अति विलङ्घ्यते गतिविदास्तवो गीतमोहितात् कितवयोषितात् कास्य जीनिषि रहसि संविदम् रुचयोदयम् प्रहसिताननम् प्रेमवीक्षणम् बृहदुराश्रियो वीक्ष्यधाम ते मुहुरते स्पृहा मूयते मनः व्रजवनौकसा व्याप्तिरङ्गते वृजिनहन्त्र्यलं विश्वमङ्गलम् त्यज मनाचन स्वात्स्पृहात्मनां स्वजनरुद्रुजाय यन्निषूदनम् यत्ते सुजातचरणाम्बुरुहम् स्तनेषु गीताशनैः प्रियदधीमहि कर्कशेषु तेनाटवीमटसि तत् व्यथते न किं स्वित् कूर्पादिभिर्भ्रमतिभिर्भवदायुषान्नः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपी गीतं नामैकत्रिंशोऽध्यायः ॐ सर्वं श्री कृष्णार्पणमस्तु।